अथ दशमोऽध्यायः ध्यानम् ॐ उत्तप्तहेमरुचिराम् रविचन्द्रवह्निनेत्राम् धनुःशरयुताङ्कुशपाशशूलम् रम्यैर्भुजैश्च दधतीम् शिवशक्तिरूपाम् कामेश्वरीम् हृदि भजामि धृतेन्दुलेखा ॐ ऋषिरुवाच निशुम्भम् निहतम् दृष्ट्वा भ्रातरम् प्राणम् सम्मितम् हन्यमानम् बलम् चैव शुम्भः क्रुद्धो ब्रवीद्वचः बलावले पादुस्ते त्वम् मा दुर्गे गर्वमावह अन्यासाम् बलमाश्रित्य युध्यते याति मानिनि देव्युवाच एकैवाहम् जगत्यत्र द्वितीया का मम परा पश्यैता दुष्टमय्येव विशन्त्यो मद्विभूतयः ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयम् तस्या दिव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका देव्युवाच अहम् विभूत्या बहुभिरिह रूपैर्यदा स्थिता तत्संहृतम् मयैकैव तिष्ठाम्याजौ स्थिरो भव ऋषिरुवाच ततः प्रववृते युद्धम् देव्याः शुम्भस्य चोभयो पश्यताम् सर्वदेवानामसुराणाम् च दारुणम् सर्वर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् दिव्यान्यत्राणि शतशो मुमुषेयान्यथाम्बिका बभञ्जतानि दैतेन्द्र तत्प्रतिघातकर्तृभिः मुक्तानि तेन शास्त्राणि दिव्यानि परमेश्वरि बभञ्जलीलयैवोग्रहुङ्कारोच्चारणादिभिः ततः सरसतैर्देवी माच्छादयत सोऽसुर सापि तत्कुपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथा ददे चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ततः खड्गमुपादाय शतचन्द्रम् च भानुमत् अभ्यधावत् तदा देवीम् दैत्यानामधिपेश्वरः तस्यापतत एवाशु खड्गम् चिच्छेदचण्डिका धनुर्मुक्तैश्चितैर्बाणैश्चर्म चार्पकरामलम् हता स्वहस तदा दैत्यश्छिन्नधन्वा विसारथिः तग्राहमुद्गरम् घोरमम्बिकानि धनोद्यतः शिक्षेदापततस्तस्य मुद्गरम् निशितै शरै तथापि सोऽभ्यधावत्ताम् मुष्टिमुद्यम्य वेगवान् तमुष्टिम् पातयामास हृदये दैत्यपुङ्गवः देव्यास्तम् चापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभ्यतो निपपात महीतले तदैत्यराजः सहसा पुनरेव तथोत्थितः उत्थ सत्य च प्रगृहो चैर्देवीं गगनमास्थितः तत्रापि सा निराधारा युयुधे तेन चण्डिका युद्धं चेतदा दैत्य चण्डिका च परस्परम् चक्र तु प्रथमम् सिद्धमुनिवेश्मयकारकम् ततो नियुद्धम् सुचिरम् कृत्वा तेनाम्बिका सह उत्पात्य भ्रामयामास चिक्षेप धरणीतले सक्षिप्तो धरणीम् प्राप्य मुष्टिमुद्यम्य वेगितः अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया समायान्तम् ततो देवी सर्वगत्यजनेश्वरम् जगत्याम् पातयामास भित्त्वा शूलेन वक्षसि तदर्ता सुपपातो व्याम् देवी शूलाग्रविच्छत चालयन् सकलाम् पृथ्वीम् सापि द्वीपाम् सपर्वताम् ततः प्रसन्नमखिलम् हते तस्मिन् दुरात्मनि जगत् स्वास्थ्यमतीवाप निर्मलम् चाभवन्नभः उत्पात मेघाशुल्काय प्रागा संस्थे समं ययुः करितो मार्गवाहिन्य तथा संस्तत्र पातिते ततो देवगणा सर्वे हर्ष निर्भरमानसा बभूवुर्निहते तस्मिन् गन्धर्वा ललितम् जगुः अवादयम् तथैवान्ये नृतुश्चात्तरो गणाः बभुः पुण्यास्तथा वाताः सुप्रभो भूद्दिवाकरः जज्ज्वलुष्कर्णयः शान्ताः शान्ता दिग्गणितस्वनाः श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्य दशमः श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु।